वैश्वदेवेन वै प्रजापतिः प्रजा असृजत ताः सृष्टा न प्राजायन्त सोऽर्ग्निरकामयत अहमिमाः प्रजनयेयमिति स प्रजापतये शुचमदधात् शोषोचत् प्रजामिच्छमानः तस्माद्यम् च प्रजाभुनक्तिरम् जना ता भोषोचतः प्रजामिच्छमानौ ता स्वग्निमप्य सृजत् ताग्निरध्ययेत् सोमोरेतो दधात् सविता प्राजनयत् सरस्वती वाचमदधात् पूषा पोषयत् एवा एते संवत्सरस्य प्रयुज्यन्ते ये देवाः पुष्टिपतयः संवत्सरो वै प्रजापतिः संवत्सरेणैवास्मै प्रजा प्राजनयत् ता प्रजा जाता मरुतोऽग्निम् अस्मानपि न प्रायुक्षतेति सरेतम् प्रजापतिर्मारुतकम् सप्तकपालमपश्यत् अन्यदवपत् ततो वै प्रजाभ्यो कल्पत यन्मारुतो निरुप्यते यज्ञस्य कृत्यै प्रजानामघाताय सप्तकपालो भवति सप्तगणा वै मरुतः गणशगेवास्मै विषम् कल्पयति स प्रजापतिरशोचत् याः पूर्वाः प्रजा असृक्षे मरुतस्ता अवचिषुः कथमपराश्रिजयेति तस्य सुष्माण्डम् भूतम् निरवर्तत तद्विदहरत् तदपोषयत् तत्प्रायायत आण्डस्य वा एतद्रूपम् यदा मिक्षाः यद्यद्धरति प्रजा एव तद्विजमानः पोषयति वैश्वदेव्या मिक्षा भवति वैश्वदेव्यो वै प्रजाः प्रजा एवास्मै प्रजनयति वाजिनमानयति प्रजा स्वेव प्रजाता सुरेतो दधाति या वा पृथिव्ययेकपालो भवति प्रजा एव प्रजाता वा पृथिवेभ्यामुभयतः परिगृह्णाति देवासुराः संयत्तासन् सोऽनिरब्रवीत् मामग्रे यजता मया मुखेनासुराञ्जेष्ठेति माम् द्वितीयमिति सोमोऽब्रवीत् मया राज्ञा ज्येष्ठेति माम् तृतीयमिति सविता मया प्रसूता ज्येष्ठेति माम् चतुर्थीमिति सरस्वती इन्द्रियम् मोहन्धास्यामीति माम् पञ्चममिति पूषा मया प्रतिष्ठया ज्येष्ठेति तेऽज्ञा मुखेनासुराणजयन् सोमेन राज्ञा सवित्रा प्रसूताः सरस्वतीन्द्रियमदधात् पूषा प्रतिष्ठासीत् ततो वै देवाव्यजयन्ता यदेतानि हवेगुंशिनिरुप्यन्ते विजित्यै नोत्तरवेदिमुपवपति पशवो वा उत्तरवेदिः अजातानि पश्येतरिः पशवः सर्वद्बर्हिर्भवति माता पिता पुत्रः तदेव तन्मिथुनम् उल्बङ्गर्भोजरायो तदेव तन्मिथुनम् तेषा बर्हिः सन्नद्धम् भवति तेजिमे लोकाः येष्वेव लोकेषु प्रतिष्ठति एकथा पुनः सन्नद्धम् भवति एक इव ह्ययम् लोकः अस्मिन्नेव तेन लोके प्रतिष्ठति पृथुवो भवन्ति प्रथमजामेव पुष्टिमवरुन्धे प्रथमजा वत्सो दक्षिणा समृद्ध्यै पशुताज्यम् गृह्णाति पशवो वे पशुताज्यम् पशवमेवावरुन्धे पञ्चगृहीतम् भवति पान्ताहि पशवः बहुरूपम् भवति बहुरूपा हि पशवः समृद्ध्यै अग्निम् मन्थन्ति अग्निमुखा वै प्रजापतिः प्रजा असृजत यदग्निम् मन्थन्ति अग्निमुखा एव तत्प्रजा यजमानः सृजते नव प्रजाजा युज्यन्ते नवानो जाजाः अष्टौ हवेगुंषे द्वावाधारौ द्वावाद्यभागौ त्रिपुंशत्सम्पद्यन्ते त्रिपुंशदक्षरा विराट् अन्नम् विराट् विराजैवान्नाद्यमवरुन्धे यजमानो वा एककपालः तेजाज्यम् यदेककपालाज्यमानयति यजमानमेव तेजसा समर्थयति यजमानो वा एककपालः पशवाज्यम् यदेकपालाद्यमानयति यजमानमेव पशुभिः समर्थयति यदल्पमानयेत् अल्पायनम् पशवो भुञ्जन्त उपतिष्ठेरन् यद्बह्वानयेत् बहवयेणम् पशवो भुञ्जन्त उपतिष्ठेरन् बह्वानेयाविप्रष्ठम् कुर्यात् बहवदेवैनम् पशवो भुञ्जन्त उपतिष्ठन्ते यजमानो वा एकपालः यदेकपालस्यावद्येत् यजमानस्यावद्येत् उद्वामाद्येद्यजमानः प्रवामीयेत सहृदेवहोतव्यः सकृतिबहिसुवर्गो लोकः कृत्वा विजुहोति यजमानमेव सुवर्गम् लोकम् गमयित्वा तेजसा समर्थयति यजमानो वा एककपालः सुवर्गो लोकाहवणीयः यदेककपालमाहवणीये जुहोति यजमानमेव सुवर्गम् लोकम् गमयति यद्धस्तेन जिहुयान् सुवर्गाल्लोकाद्यजमानमो विध्येत् सुजाजुहोति सुवर्गस्य लोकस्य समष्टिः यत्रान् पद्येत देवलोकमभिजयेत् यद्दक्षिणापितृलोकम् यत्प्रत्यग रक्षागुंसि यज्ञगुम्भन्यः यदुदन्य मनुष्यलोकमभिजयेत् प्रतिष्ठितो होतव्यः एकपालम्बे प्रतिष्ठन्तम् यावापृथिवेयमुप्रतिष्ठतः यावापृथिवे ऋतवः ऋतो न यज्ञः यज्ञम् यजमानः यजमानम् प्रजाः तस्मात् प्रतिष्ठितो होतव्यः वाजिनो विदते अग्निर्वाजः सूर्यः एवै वाजिनः तानेव तद्विजते अथो खल्वाहुः छन्दागुम् शिवे वाजिनैः तानि एव तद्विजते यत्सामेवा इन्द्रस्य हरिः सोमपाणौ हरिपरिधय आधानम् वाजिनम् भागधेयम् यदप्रहृत्यपरिधेन्द्युभुजात् अन्तराधानाभ्याम् घासम् प्रयच्छेत् प्रहृत्यपरिधेन्द्युहोति निराधानाभ्यामेव घासम् प्रयच्छति वाजिनमानयति प्रजावे बहिः रेतो वाजिनम् प्रजास्वेव रेतो दधाति समभूय भक्षयन्ति एतत्सोमपि धाह्येते असो आत्मन्नेव रेतो दधते यजमान उत्तमो भक्षयति पशवो वाजिनम् यजमान एव पशून् प्रतिष्ठापयन्ति प्रजापतिः सविता भूत्वा प्रजा असृजता कालेन मत्यमन्यन्त अस्मादपामन् तावरुणो भूत्वा प्रजावरुणेनाग्राहयत् ता प्रजावरुणगृहीताः प्रजापतिम् पुनर्वाधावन्नाशमिच्छमानाः सवेतान् प्रजापतिर्वरुणप्रकाशान् पश्यते तान्यलपदे तैर्वैष प्रजावरुणपाशादमुञ्चते यद्वरुणप्रकाशानुरुच्यन्ते प्रजानामवरुणग्राहाय आसान्दक्षिणा बाहुण्यग्नासीत् सव्यः प्रसृतः सवेतान् द्वितीयान् दक्षिणतो वेदिमुदहन् ततो वेष प्रजानाम् दक्षिणम् बाहुम् प्रासारयत् यद्वितीयान् दक्षिणतो वेदिमुद्धन्ति प्रजानामेव तद्यजमानो दक्षिणम् बाहुम् प्रसारयति तस्मात्मास्य राज्यमष्टिर्लोकौभयाबाहुः यज्ञाभिजितज्ञस्य प्रथमात्राद्य असम्भिन्ने भवतः तस्मात्प्रथमात्रम् विपुंसौ उत्तरस्याम् वेद्यामुत्तरवेदिमुपपति पशवो वा उत्तरवेदिः पशूनेवावरुन्धे अथो यज्ञपरुषोऽनन्तरित्ये एतद्ब्राह्मणान्येव पञ्च हवेगुंहे अथैषैन्द्राज्ञो भवति प्राणापानौ वा एतौ देवानाम् इन्द्राग्ने यदेन्द्राज्ञो भवति प्राणापानावेवावरुन्धे ओजोबलम् वा एतौ देवानाम् इदिन्द्राग्ने यदेन्द्राज्ञो भवति ओजोबलमेवावरुन्धे मारुत्यामिक्षा भवति वारुण्यामिक्षाः मेषी च मेषश्च भवतः मिथुना एव प्रजावरुणपाशान् मुञ्चति सोमसो भवतो मे धृत्वाय शमीपर्णान्यपवति घासमेवाभ्यामपि यच्छति प्रजापतिमन्नाद्यन्नोपानमत् स सदेतेन सदेभ्येन हविषान्नाद्यमवारुन्ध यत्परः शतानि समे पर्णानि भवन्ति अन्नाद्यस्यावरुद्ध्ये सौम्यानि वै कलीराणि सौम्या खलु वा आहुतिर्दिवावृष्टिम् चावयति यत्कलीराणि भवन्ति सौम्यैवाहुत्या दिवावृष्टिमवरुन्धे काले एककपाला भवति प्रधानाम् कम्पाय प्रतिपूर्षङ्करम् भपात्राणि भवन्ति जाता एव प्रजावरुणपाशान्मुञ्चति एकमतिरिक्तम् निश्यमाना एव प्रजावरुणपाशान्मुञ्चति उत्तरस्याम् वेद्यामन्यानि हवेगुंसि साधयति दक्षिणायाम् मार्गे अपधुरमेवैनानि वक्ते अथो गोचेवासामहरति तस्माद्ब्रह्मणश्च क्षत्राश्च विषोऽन्यतोपक्रमिणीः मारुत्या पूर्वया प्रचलति अनन्तरमेवावैदत् वारुण्योत्तरया अनन्ततमेव वर्णमवैदत् यदेवाध्वर्यः करोति तत्पदि प्रस्थाता करोति तस्माद्गच्छेयान् करोति तत्पापीरान् करोति पत्नीम् वाचयति मेऽध्यामेवैनाम् करोति अथो तप एवैनामुपनयति यज्जातकम् सन्तन्न प्रब्रूयात् प्रियाम् ज्ञातिमुन्ध्यात् असौ मे जारयति निर्दिशेत् निर्दिश्यैवैनम् वरुणपाशेन ग्राहयति प्रधास्यान् हवामहैः पत्नी मुदानयति अक्वतैवैनाम् यत्पत्नी पुरोणवाक्यामनुब्रूयात् निर्वीर्यजमानः स्यात् यजमानोन्वाह आत्मन्नेव वीर्यम् धत्ते उभौ याज्ञाकम् सवीर्यत्वाय यद्रामेकरण्यैत्याह यथोदितमेव वर्णमैले यजमानदेवत्यो वाहवनीयः भ्रातृदेवत्यो दक्षिणः यदाहवनीये भूयात् यजमानम् वर्णपाशेन ग्राहयेत् दक्षिणेऽज्ञौ जुहोति भ्रातृव्यमेव वर्णपाशेन ग्राहयति शूर्पेण जुहोति अन्यमेव वर्णमवयजते शीर्षन्नशिरिधाय जुहोति शीर्षत एव वर्णमवयजते प्रत्यम् तिष्ठन् जुहोति प्रत्यङ्गेव वर्णपाशान्निर्मुच्यते अकन् कर्म कर्म कृत्याह देवानिर्वदाय अरुणागृहानुभप्रेते दिवावेतराः वर्णगृहीतम् वारेतद्यज्ञस्य यद्यजुधा गृहीतस्यातिरिच्यते तुषाःश्च तुषेश्चनिष्कासेन तावपृथमवेति वरुणगृहीतेनैव वरुणमवेतते अपोमपृथमवेति अप्सुवै वरुणः साक्षादेव वरुणमवेतते प्रतिहितो वरुणस्य पाशमित्याह वरुणपाशादेव निर्मुच्यते अप्रतीक्षमायन्ते वरुणस्यान्तरिहित्ये येधोशेषीमहेत्याः समिधैवाग्निर्नमस्यन्त उपायन्ते तेजोसतेजोमिधेहीत्याह तेजदेवात्रम् धत्ते देवासुराः संयत्तासन् सोऽग्निरब्रवीत् ममेजमनीतवते तमोः ताम् प्रीणीताम् अथासुरानि भविष्यचेति ते देवाग्नयेरीगमते पुरोढाशमष्टाकपालन्निरवन् सोऽग्निरीगवान् स्वेन भागधेन प्रीतः चतुर्धानीकान्यजनयत ततो देवाभवन् परासुराः यदग्नयेरीगमते पुरोढाशमष्टाकपालन्निर्भवति अग्निमेवानेकवन्तर्जस्वेन भागधेन प्रीणाति सोऽग्निरणीकवान् स्वेन भागधेन प्रीतः चतुर्धानीकानि जनयते असौ वादित्योऽग्निरणीकवान् तस्य रश्मयोनीकानि साकम् सौर्येणाभ्यता निर्गपति साक्षादेवास्मानीकानि जनयति तेऽसुराः पराजितायन्तः या वा पृथिवी उपाश्रयन् ते देवा मरुद्भ्यः सान्तवनेभ्यश्चरन्निरवन् तान् या वा पृथिवेभ्यामेव भयतः समतवन् यन्मरुद्भ्यः सान्तवनेभ्यश्चरन्निर्भवति या वा पृथिवेभ्यामेव ततु भयतो यजमानभ्यातृव्यान् सन्तपति मध्यन्दिने निर्भवति तर्हि सन्तपति चतुर्भवति
सर्वतदेवेनान् सन्तपति ते देवाश्वविदिनस्सन्तः सर्वासाम् दुग्धे गृहमेधीनम् चलन्निलवपन् आशिता देवाद्योपवसामा कस्य वा हेदम् कस्य वाश्व भवितेति न श्रुतो भवन् तस्याहुतस्य नाश्नन् न हि देवाहुतस्याश्नन्ति ते ब्रुवन् कस्मायिमगुम्भोश्वामिति मरुद्भ्यो गृहमेधिभ्यरित्यब्रुवन् तम् मरुद्भ्यो गृहमेधिभ्यो दिशवुः ततो देवाभवन् परासुराः यस्यैवम् विदुतो मरुद्भ्यो गृहमेधिभ्यो गृहे जुक्मति भवत्यात्मनाः पराः सभ्यातुर्यो भवति यदि यज्ञश्च पाकत्रा क्रियते वशव्यम् तत् पाकत्रा वा एतत्क्रियते यन्नेऽध्वा बलिहद्भवति न सामिधेनेरन्वाः न प्रजाजा युज्यन्ते नानो राजाः शयाम् भवति आज्ञभागौ यजति यज्ञस्यैव चक्षुषेणान्तरेति मरुतो गृहमेधिलायति भागधेनैवेदान् समर्थयति अग्निज्ञस्वष्टकृतञ्जलि प्रतिष्ठित्यै इडान्तो भवति पशवो वा इडापरिष्टा प्रतिष्ठति यत्पत्ने गृहमेधीयस्याश्नीयात् गृहमेध्येव स्यात् वित्तश्च निज्ञनिध्येत यन्नाश्नीयात् अगृहमेधी स्यात् नास्तिज्ञाव्यध्येन प्रतिवेशम् भजेदुः तस्याश्नीयात् गृहमेध्ये भवति नास्तिज्ञाव्यध्यते ते देवा गृहमेधीयेनेष्ट्वा आशिताभवन् आञ्जताभ्यञ्जता अनुवत्साणवादयन् तेभ्यो सुराः कृतम् प्राहिन्वन् सा देवेषु लोकमहित्वा असुरान् पुनरगच्छत् गृहमेधीयेनेष्ट्वा आशिता भवन्ति आञ्जते अभ्यञ्जते अनुवत्सानुवादयन्ति भ्रातृव्यादेव तद्यजमानः कृशम् प्रहिणोति ते देवागृहमेधीयेनेष्ट्वा इन्द्राजिष्कासमिरसुः अस्मानेव स्वैन्द्रो निहितभागमुपावर्तितेति तानिन्द्रो निहितभागमुपावर्तत गृहमेधीयेनेष्ट्वा इन्द्राजनिष्कासम् निषध्यात् इन्द्र एवेन निहितभागमुपावर्तते गार्हपत्येऽपि होति भागधेयेनैवेनकम् समर्थयति ऋषभमाह्वयति वषर्कारेवास्तिसः अथो इन्द्रियमेव तद्देव्यञ्जमानाभ्यादिव्यस्तुञ्जे इन्द्रो वृत्रकम् हत्वा पराहम् परावतमगच्छत् अपाराधमिति मन्यमानः सोऽब्रवीत् क इदम् वेदिष्यतीति ते ब्रुवन् मरुतो वरम् वृणामहे अथ वयम् वेदाम अस्मभ्यमेव प्रथमकम् हविर्निरुप्याता इति त्वयेन मध्य क्रीडन् तत्क्रीडिनाहम् क्रीडित्वम् यन्मरुभ्य क्रीडिभ्यः प्रथमकम् हविर्निरुप्यते विजित्ये साकम् सौर्येणाभ्यजानिर्भवते एतस्मिन् वे लोक इन्द्रो वृत्रमहन् समर्थ्यै एतद्ब्राह्मणान्येव पञ्च हवेपुंषे एतद्ब्राह्मणैन्द्राग्नः अधीष इन्द्रश्चरद्भवति उद्धारम् वा एतमिन्द्र उदहरत वृत्रकम् हत्वा अन्यासु देवता स्मृति यदेष इन्द्रश्चरद्भवति उद्धारमेव संयजमान उद्धरते अन्यासु प्रजास्मधि ऐश्वकर्मण एकपादो भवति विश्वान्येव तेन कर्माणि विजमानो वरुन्धे ऐश्वदेवेन वै प्रजापतिः प्रजा असजत तावरुणप्रघासेर्वरुणपाशादमुञ्चत् साकमेधे प्रत्यस्थापयत् त्र्यम्बके रुद्रम् निरवादयत पितृर्गेण सुवर्गम् लोकमगमयत् यद्वैश्वदेवेन यजते प्रजादेव तद्यजमानसृजते तावरुणप्रघासेर्वरुणपाशान्मुञ्चते साकमेधे प्रतिष्ठापयते त्र्यम्बके रुद्रम् निरपदयते पितृर्गेण सुवर्गम् लोकम् गमयते दक्षिणतः प्राचीनादेशेर्वपति दक्षिणावृद्धिपितलाम् अनादृत्य तत् उत्तरतदेवोपवीयनिर्दवेत्
उभये हि देवाश्च पितरश्चेद्यन्ते अथो यदेव दक्षिणार्धेऽधिश्रयति तेन दक्षिणावत् सोमानि पितृमते पुरोडाशकम् दर्गपालम् निर्गमति संवत्सरोऽपि सोमः पितृमान् संवत्सरमेव प्रीणाति पितृभ्यो परिषिषद्भ्यो धानाः मासा वै पितरो परिषदः मासानेव प्रीणाति यस्मिन् भारतौ पुरुषः प्रमीयते सोऽस्यामुष्मिन् लोके भवति बहुरूपा धाना भवन्ति बहुरात्राणामभिजित्यै पितृभ्योऽग्निष्पात्तेभ्यो मंसम् अर्धमासा वै पितरोऽग्निष्पात्ताः अर्धमासानेव प्रीणाति अधिवाण्यानि दुग्धे भवति साधिपितरे वर्त्यम् दुहे यत्पूर्णम् तन्मनुष्याणाम् उपर्यद्धो देवानाम् अर्धपितृणाम् अर्ध उपमन्थति अर्धो हि पितृणाम् एकयोपमन्थति एका हि पितृणाम् दक्षिणोपमन्थति दक्षिणावृद्धिपितृणाम् अनारभ्योपमन्थति तद्धिपितॄन् गच्छति इमान् दिशम् मे निमुद्भन्ति उभये हि देवाश्च पितरश्चेद्यन्ते ऋतुस्रक्तिर्भवति सर्वाह्यनृषः पितरः अखाता भवति खाता हि देवानाम् मध्यतोऽग्निराधीयते अन्ततो हि देवानामाधीयते वर्षीयानिध्वयुद्माद्भवति व्यावृत्त्यै परिश्रयति अन्तरिहितो हि पितृलोको मनुष्यलोकात् यत्परुषिदिनम् तद्देवानाम् यदन्तरा तन्मनुष्याणाम् यत्समूलम् तत्पितृणाम् समूलम् बहिर्भवति व्यावृत्त्यै दक्षिणास्तदाति दक्षिणावृद्धिपितृणाम् तिःपर्येति तदीदेवा इतो लोके पितरः तादेव प्रीणाति त्रिः पुनः परिणेति षट्सम्पद्यन्ते षड्वारतमः ऋतूरेव प्रीणाति यत्प्रस्तरे यजुदा गृह्णीयात् प्रमालिको यजमानः स्यात् यन्न गृह्णीयात् अनायतनः स्यात् तोष्टेमे वन्द्यस्येत् न प्रमालिको भवति नानायतनः यत्रेऽन्परिधेऽन्परिदध्यात् मृत्युना यजमानम् परिगृह्णीयात् यन्न परिदध्यात् रक्षाकम् च यज्ञकम् हन्यः तौ परिधे परिदधाति रक्षसा उपहत्ये अथो मृत्योरेव यजमानमुत्सृजति यत्रेणि त्रीणि हवेकश्युता हरेदुः त्रयस्त्रयेषाकम् साकम् प्रमीरेरन् एकैकमनोचीनाहम् युदाहरन्ति एकैकदेवेषामन्वम् च प्रमीयते कशिपकशिपव्याय उपवर्गणमुपवर्गण्याय आञ्जनमाञ्जन्याय अभ्यञ्जनमभ्यञ्जन्याय यथा भागमेवेनाञ्जेनादि अग्ने देवेभ्यः पितृभ्यः समिद्यमानाय न ब्रूहेत्याह उभये हि देवाश्च पितरश्चेद्यन्ते एकामन्वाः एकाहि पितृणाम् त्रिलङ्गाः तर्हि देवानाम् आधारावाधारयति यज्ञपरुषोरणन्तरित्यै नारिडेयम् वृणीते न होतारम् यदारिडेयम् वृणीत यद्धोतारम् प्रमालिको यजमानः स्यात् प्रमालिको होता तस्मान्न वृणीते यजमानस्य होतुर्गोपीचाय अपवर्गिषप्रजायायते प्रजा वै बर्हिः प्रजा एव मृत्योरुत्सृजति आज्यभागो विजति यज्ञस्यैव यक्षुणान्तरेति प्राचीनावीति सोमम् युजति ऋतदेवत्याहि एषाहुतिः पञ्चतत्त्वोपद्यति पञ्चह्येता देवताः देवपुरोनुवाक्ये याज्ञा देवतावषट्कालः ता एव प्रीणाति सन्ततमपद्यते ऋतूनागुम् सन्तत्ते प्रीवैर्भ्यः पूर्वया पुरोनुवाक्ययाः प्रणयति द्वितीयया गमयति याज्ञया तृतीयेवा इतो लोके पितरः अह्नयवेनान् पूर्वया पुरोनुभाक्यनात्यानयति रात्रिरे द्वितीयया नैवेनान् याज्ञया गमयति दक्षिणतो वदाय उदन्तरिक्रामति व्यावृत्त्यै आस्वधेत्याश्रावयति अस्तु स्वधेति प्रश्नाश्रावयति स्वधानमयति वषट् करोति स्वधाकारो हि पितृणाम् सोममग्रे यजति सोमप्रयाजाहि पितरः सोमम् पितृवन्तम् यजति संवत्सरो वे सोमः पितृवान् संवत्सरमेव तद्विजति पितरन्बर्हिषदो यजति एवै यज्वानः ते पितरो बर्हिषदः तानेव तद्यजति पितृणग्निष्वात्तानि एवायज्वानाघमेधिनः ते पितरोऽग्निष्वात्ताः तानेव तद्विजति अग्निम् गव्यवाहनम् यजति यजेव पितृणामग्निः तमेव तद्विजति अथो यथाग्निज्ञस्वच्चकृतम् यजति तादृगेव तद् एतत्तेतदगे चत्वामन्विषदधाति तस्मादादितीया पुरुषान्नामनगृह्णन्ति एतावन्तो हेज्यन्ते अत्र पितरो यथा भागम् मन्दब्धमित्याह त्रीकाहि पितरः पुरञ्चो निष्क्रामन्ति एषा मे मनुष्याणान्तिके स्वामेव तद्दिशमनुष्क्रामन्ति आहवनीय उपतिष्ठन्ते एवास्मै तद्ध्रुवते यत्सत्याहवनीये अथवान्येतरन्ति आतमितोरुपतिष्ठन्ते अग्निमेवोपद्रष्टारम् कृत्वा पितरेण निरवदयन्ते अन्तम् वा एते प्राणानाहम् गच्छन्ति यातमितोरुपतिष्ठन्ते सुसन्दृशन्त्वा वयमित्याह प्राणो वे सुसन्दृश प्राणमेवात्मम् दधते यो जान्विन्द्रदेहरि इत्याह प्राणमेव पुनर्युक्त अक्षन्नमे वदन्तहीति गार्हवत्यमुपतिष्ठन्ते अक्षन्नमीमदन्ता सत्त्वोपतिष्ठामः इति वा वेददाः अमीमदन्तपितरः सौम्या इत्यभिप्रपद्यन्ते अमीमदन्तपितरो सत्त्वाभिप्रपद्यामः इति वा वेददाः अवः परिषिञ्चति मार्जयत्येवैनान् असो दर्पयत्येव तृप्तरिप्रजया पशुभिः एवम् वेद अवपरिषिरावनो याजौ यजति प्रजा वै बलिभिः प्रजा एव मृत्योरुत्थजति यतरः प्रयाजानयति द्वावनो याजौ षट्सम्पद्यन्ते षड्वारितमः ऋतोमेव क्रीणाति न पद्यन्वास्ते न संयाजयन्ति यत्पत्यन्वासीत यत्संयाजयेयुः प्रमायुका स्यात् तस्मान्नान्वास्ते न संयाजयन्ति पत्नीयैकोपीसाय प्रतिपूर्षमेककपालान् निर्भवति जाता एव प्रजा रुद्रान् निरवदयते एकमतिरिक्तम् जनिष्यमाणादेव प्रजा रुद्रान् निरवदयते एककपाला भवन्ति एकथैव रुद्रम् निरवदयते नाभिघारयति यदभिघारयेत् अन्तरवचारिणकम् रुद्रम् कुर्यात् एकोन्मुखेन यन्ति तद्धिरुद्रस्य भागधेयम् इमान् विषयन्ति एषा वे रुद्रस्य दिग् स्वायामेव दिशि रुद्रम् निरवदरते अब्रौमापशुकाया आहुक्तेनातिष्ठत असौ ते पशुर्दिशेऽद्यम् दिश्यात् यमेव द्वेष्टि तमस्मे पशुम् निर्दिशति दिश्यात् आकुस्ते पशुरतिब्रूयात् न ग्राम्यान् पशून हिरस्ति नारण्यान् सुदुष्पथे जुहोति एतवा अग्नीनाम् वड्वीशो नाम अग्निवत्येव जुहोति मध्यमेन वर्णेन जुहोति सुर्घेषो खलु अन्तमेनैव होतव्यम् अन्ततदेव रुद्रम् निरवदयते एतदे रुद्रभागः सहस्वस्राम्बिगजेत्याः शरद्वास्याम्बिका स्वसाः अया वा एकगिनस्ति यगुम् हिनस्ति तयैवैनगुम् सहशमयति भेडजङ्गमयित्याः यावन्त एव ग्राम्याः पशवः एभ्यो भेषजम् करोति अवाहम् वरुद्रमतिमहेत्याः आशिषमेवैतामाशास्ते यम्बगम् यजामः इत्याह मृत्योर्मुक्षीयमामृतादेवा वेतदाः उत्किरन्ति नरस्य लेप्सन्ते मूते गत्वा सजन्ति यथा जनयते वसम् करोति तादृगेव तत् एषते रुद्रभाग इत्याह निरवत्यै अप्रतीक्षमायन्ति अपरिषिञ्चति रुद्रस्यान्तरिहित्यै प्रवा एतेऽस्मान् लोकाक्षमन्ते हे त्र्यम्बकैश्चरन्ति
ఆదిత్యం చరం పునరే నిర్లభతి ఇయం బాలదిని అస్యామేవ ప్రతిష్ఠంతి. ఓం ఏతద్బ్రాహ్మణాన్నేవ పంచహవీగుంషి అథేంద్రాయ సునాధీరాయ పురోడాశం ద్వాదశ కపాలం నిర్లభతి. సంవత్సరో వా ఇంద్రాసునాధీన సంవత్సరే నైవాస్మాన్నమవరుంధే. వాయవ్యం పయోభవతి వాయుర్వే వృష్టే ప్రదాపయత సరేవాస్మే వృష్టిం ప్రదాపయతి. సౌర్య ఏకకపాలో భవతి సూర్యేణ వాముష్మల్లోకే వృష్టిర్ధృత సరేవాస్మే వృష్టిం నియచ్చతి. ద్వాదశకపగుంధీరం దక్షిణా సమర్థ్యై దేవాసురా సంయత్తాసన్ హే దేవా అగ్నిమబ్రువన్ ప్రజా వీరేణాసురానుభవామేతి సోహబ్రవీత్. త్రేధాహమాత్మానం వికరిష్యతి సత్రేధాత్మానం వ్యకరుత. అగ్నిం తృతీయం రుద్రం తృతీయం వరుణం తృతీయం సోహబ్రవీత్. కైషం తృతీయమితి అహమిదీంద్రోబ్రవీత్. సంతుసృజావహ ఇది తౌ సమసృజేతాం సైంద్రస్తురీయమభవత్. ఇంద్రస్తురీయమభవత్ రవీంద్రతురీయస్యేహేంద్రతురీయత్వం తతో దేవాభ్యజయంత. యదీంద్రతురీయం నిరుప్యతే అభిజిత్యై బ్రహిణేనుర్దక్షిణా యద్బ్రహిణీ తేనాగ్నేయీ యద్గౌః తేన రౌద్రీ యద్ధేనుః తేనైంద్రీ యత్స్త్రీ సరీదాంత తేన వారుణీ సమృద్ధ్యై ప్రజాపతిర్యజ్ఞమసృజత. హరగుం షష్టగుం రక్షాగస్తిఘాగుం సన్ సజేతాః ప్రజాపతిరాత్మనో దేవతా నిరమిమీత. తాభిర్వేషదిభ్యో రక్షాగుంసి ప్రాణుదత. యత్పంచావత్యం జుహోతి దిగ్భ్యజమానో రక్షాగుంసి ప్రణుదత్. సమూఢగుం రక్ష సందర్భగుం రక్షయిత్యాహ రక్షాగస్యేవ సందహతి. అగ్నే రక్షోగ్నే స్వాహేత్యాహ దేవతాభ్యయమగతి జ్ఞానాభ్యో భాగేయం కరోతి. వృష్టివాహీరథో దక్షిణా సమర్థ్యై ఇంద్రో భృత్రగుం హత్వా అసురాన్ పరాభావ్య నముచిమాసురన్నాలభత. అగుం సత్యా గృహ్ణాత్ తౌ సమలభేతాం సోస్మాదభిసునతలోభవత్. సోబ్రవీన్ సంధాగుం సందధావహై అథత్వావస్రక్ష్యామి నమాదుష్కేణ నారేణ హనః హరివాననక్తమితి స ఏతమపాం ఫేనమసిత్. నమాద్రోవ్యుష్టాసీర్ అనుదిత సూర్య. నమాదివారణక్తం తస్ైతస్మిల్లోకే అపాం ఫేన శిర ఉదవర్తయత్. మిత్రద్రుగితి స ఏతానపామార్గాన జనయత్. తానుజుహోత్ హైర్వేష రక్షాగస్య పాహత. యదపామార్గహోమో భవతి రక్షసానుపహత్యై ఏకోన్ముఖే నయంతి తద్భిరక్షసాం భాగధేయం ఇమాం దిశయ్యంతి. ఏషా వే రక్షసాంతిక స్వాయామేవ దిశరక్షాగం సిహంతి. స్వకృతగిరిణే జుహోజి ప్రదరేవాః ఏతద్వై రక్షసామాయతనం. స్వగేవాయతనే రక్షాగం సిహంతి. వర్ణమయేణ శ్రువేణ జుహోతి బ్రహ్మవై వర్ణ బ్రహ్మణైవ రక్షాగుం జిహంతి. దేవస్యప్తాథమిత్యాహ సవితృప్రసూత ఏవ రక్షాగుం జిహంతి. హరగుం రక్షోపశిష్మరక్ష ఇత్యాహ రక్షతాకృత్యై యద్వస్తేతద్దక్షిణా జలహత్యై రక్షసాక్షమాయంతి రక్షసామంజలిహిత్యై. ధాత్రే పురోడాశం ద్వాదశ కపాలం నిర్వపతి. సంవత్సరా వై ధాత సంవత్సరే నైవాస్మై ప్రజా ప్రజనయతి. అన్వేవాస్మానుమతిర్మన్యతే రాతే రాకా ప్రసృజనైవాజే జనయతి. ప్రజాస్వేవ ప్రజాదాసు భుక్వా వాచం దధాతి. విషమౌగావో దక్షిణా సమృద్ధ్యై ఆజ్ఞా వైష్ణవమేకాదశ కపాలం నిర్వపతి. ఐంద్రా వైష్ణవమేకాదశ కపాలం వైష్ణవంత్రిక పాలం. వీర్యం వా అగ్ని వీర్యమింద్ర వీర్యం విష్ణు. ప్రజా ఏవ ప్రజాత వీర్యే ప్రతిష్టాపయతి. తస్మా ప్రజా వీర్యావతీ వామనృషభో బహిర్దక్షిణా. యద్బహి
तेनाग्नेयः यदृषभः तेनेन्द्रः यद्वामनः तेन वैष्णवः समृद्ध्यै अग्नेशोमीयमेकादशकपालम् निर्वपति इन्द्रासोमीयमेकादशकपालम् सौम्यञ्चलम् सोमावेरतोषाः अग्न्यः प्रजानाम् प्रजनयिता वृद्धानामिन्द्रः प्रजापयिता सोमगेवास्मैरेतो दधाति अग्न्यः प्रजाम् प्रजनयति वृद्धामिन्द्रः प्रयच्छति बभ्रुर्दक्षिणा समृद्ध्यै सोमापौष्टम् चलम् निर्वपति ऐन्द्रापौष्टम् चलम् सोमो वीरेतोषाः पूषापशूनाम् प्रजनयिता वृद्धानामिन्द्रः प्रदापयिता सोमगेवास्मैरेतो दधाति पूषापशून् प्रजनयति वृद्धानिन्द्रः प्रयच्छति पौष्टश्चरुद्भवति इयम् वै पूषा अस्यामेव प्रतिष्ठति श्यामो दक्षिणा समृद्ध्यै बहु वै पुरुषो मेध्यमुपगच्छति वैश्वानरम् द्वादशकपालम् निर्भवति संवत्सरो वा अग्निर्वैश्वानरः संवत्सरेणैवैनग्निस्पदयति हिरण्यम् दक्षिणा पवित्रम् वै हिरण्यम् पुनात्ते वैनम् बहुवीराजन्योदृतम् करोति उपजान्मे हरते ज्ञातिब्राह्मणम् वदत्यजतम् हरते खलु वे क्रियमाणे वरुणा गृह्णाति वारुणञ्जमयम् चरुण्यर्भवति वरुणपाशादेवैनम् मुञ्चते अश्वो दक्षिणा वारुणो हि देवतयाश्वः समृद्ध्यै रत्रिणामेतानि हवेगंषि भवन्ति एते वै राष्ट्रस्य प्रदातारः एते प्रदातारः एव राष्ट्रस्य प्रदातारः एव दातारः तदेवास्मै राष्ट्रम् प्रयच्छन्ति राष्ट्रमेव भवति यत्समाहृत्य निर्वपेत् अरत्तिनस्युः यथा यथन्निर्वपजरत्नाय यत्सद्यो निर्वपेत् यावती मेघेण हविषाशुषमवरुन्धे तावदेवरुन्धीत अन्महन् निर्वपति भूयसी मेवाशुषमवरुन्धे भूयसा यज्ञक्रतोऽनुपैति बाह्यस्पत्यम् चरन् निर्वपति ब्रह्मणा गृहे मुखद एवास्मै ब्रह्म दृश्यते असो ब्रह्मन्नेव क्षत्रमन्वारम्भयति शितपृष्ठो दक्षिणा समृद्ध्यै ऐन्द्रमेकादशकपालगौराजन्यस्य गृहे इन्द्रियमेवावरुन्धे ऋषभो दक्षिणा समृद्ध्यै आदित्यम् चरम् महर्षे गृहे यम् वा अतिथिः अस्यामेव प्रतिष्ठति धेनुर्दक्षिणा समृद्ध्यै भगायुजलम् वाताये गृहे भगमेवास्मिन् दधाति विचित्रगर्भापष्ठौ हि दक्षिणा समृद्ध्यै नैरन्तरम् परिवृत्ते गृहे कृष्णानाम् व्रीहीणान्नषड्भिन्नम् पाप्मानमेव निर्वदयते कृष्णाकूटा दक्षिणा समृद्धे आग्नेयमष्टाकपालकम् सेनान्यो गृहे सेनामेवास्य सदृश्यते हिरण्यम् दक्षिणा समृद्धे वारुणम् दशकपालकम् सूतस्य गृहे वरुणसमेवावरुन्धे महायष्टो दक्षिणा समृद्धे मातरम् सप्तकपालम् ग्रामन्यो गृहे अन्नम् वै मरुतः अन्नमेवावरुन्धे दृष्ट्यर्दक्षिणा समृद्धे सावित्रम् द्वादशकपालम् क्षत्रगृहे प्रसोत्यै उपध्वस्तो दक्षिणा समृद्धे आश्विनन्दिकपालकम् सङ्ग्रहेतुर्गृहे अश्विनौ वै देवानाम् भिरजौ ताभ्यामेवास्मै भेदम् करोति समात्यौ दक्षिणा समृद्ध्यै पौष्टम् चलम् भागदृढस्य गृहे अन्नम् मे पूषा अन्नमेवावरुन्धे श्यामो दक्षिणा समृद्ध्यै रौद्रङ्गावेशुकम् जलमक्षा पापस्य गृहे अन्तत एव रुद्रम् निरवदयते सबलमुद्वारो दक्षिणा समृद्ध्यै द्वादशैतानि हवेगुंषि भवन्ति द्वादशमासाः संवत्सरः संवत्सरेणैवास्मै राष्ट्रमवरुन्धे राष्ट्रमेव भवति यन्न प्रतिनिर्वपेत् रत्रिण आशिषोऽवरुन्धीरन् प्रतिनिर्वपति इन्द्राय सूत्राण्य पुरोडाशमेकादशकपालम् इन्द्रायागम् होमुचे आशिष एवावरुन्धे अयम् नो राजा वृत्रः राजा भूत्वा वृत्रम् वृद्धादित्याः आशिषमेवैतामाशास्ते नैत्रापारिहस्पत्यम् भवति श्वेतायैः श्वेतमत्सायै दुग्धे पारिहस्पत्ये मैत्रमपि दधाति ब्रह्मदैवास्मैः क्षत्रम् च समीचे दधाति अथो ब्रह्मण्येव क्षत्रम् प्रतिष्ठापयति पारिहस्पत्येन पूर्वेण प्रचरति मुखदयेवास्मै ब्रह्मसङ्गश्यति अथो ब्रह्मण्येव क्षत्रमन्वारम्भयति स्वयम् कृतावेदद्भवति स्वयम् दिनम् बलिः स्वयम् कृतयुद्मः अनभिजितस्याभिजित्यै तस्माद्राज्ञामरण्यमभिजितम् सैव श्वेता श्वेतवत्सा दक्षिणा समलभ्यै